इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। लोकसभा निर्वाचनस्य अवशिष्ट चरणानां कृते प्रचाराभियानं तीव्रं जातम्। ह्यः करीमनगर लोकसभा क्षेत्रस्य वेमुलावाडायां जनसभां सम्बोधयन् प्रधानमन्त्री तथा भाजपादलस्य वरिष्ठनेता नरेन्द्रमोदी विगत दशवर्षेष् एनडीए सर्वकारस्य उपलब्धीनां श्रेयः नागरिकेभ्यः दत्तवान्। राजमपेटे सभां सम्बोधयता प्रधानमन्त्री नरेन्द्रमोदी जनान् आन्ध्रप्रदेशे डबल इंजन की सरकार इत्यनेन कष्टात् उद्धाराय समृद्धिं च आनेतुम् आहूतवान्। आन्ध्रप्रदेशस्य विधान निर्वाचनम् अपि अस्मिन् एव समये भविष्यति। प्रधानमन्त्रिणा भाजपादलस्य वरिष्ठनेत्रा च नरेन्द्रमोदिना उक्तं यत् देशः जनानां वर्णस्य आधारेण अनादरं न स्वीकरिष्यति। तेलंगाना राज्यस्य वारंगल नगरे जनसभां सम्बोधयता श्रीमोदिना पूर्व प्रधानमन्त्रिणः पीवी नरसिम्हा राववर्यस्य विषये कांग्रेसदले आक्रमणं कृतम्। सः अवदत् यत् भाजपायाः नीतिः राष्ट्रप्रथमम् एव अस्ति, सः च नीतेः कार्यं करोति। तत्रैव कांग्रेस वीआरएस इत्यादीनां दलानां परिवारप्रथमनीतिः अस्ति। एषा परिवारप्रथमनीतिः एव कारणं यत् कांग्रेसेन पीवी नरसिम्हा राववर्यस्य उपेक्षा अनादरं च कृतः। श्रीमोदिना उक्तं यत् एनडीए पीवी नरसिम्हा राववर्यस्य सम्मानं करोति, तस्मै भारतरत्नेन पुरस्कारेण समलंकरोति। प्रधानमन्त्रिणा जनान् आवाहनं कृतं यत् ते विकासाय मतदानं कुर्वन्तु, ये तेलंगाना राज्यस्य अहितं कुर्वन्ति तेषां कृते उपयुक्तं उत्तरं दातव्यम् इति। तेलंगाना राज्यस्य मुख्यमंत्री पीसीसी अध्यक्षः च रेवंत रेड्डी ह्यः स्वीय अरमूर पथ प्रदर्शन समारोहे जनान् सम्बोधितवान्। सः निजामाबाद नगरे अन्यं चापि पथ प्रदर्शनं कृतवान्। तत्रैव बीआरएस प्रमुखः पूर्व मुख्यमंत्री च के चन्द्रशेखर रावः गतसायं नरसापुरे पथ प्रदर्शनम् आयोजितवान्। भाजपेति दलस्य वरिष्ठ नेत्रा उत्तरप्रदेशस्य मुख्यमन्त्रिणा च योगी आदित्यनाथेन कानपुर एटा शाहजहांपुर मण्डलेषु च प्रचाराभियानं सम्पादितम्। भाजपादलस्य संगठन सचिवेन बीएल संतोषेन बाराबंकी गोण्डा मण्डलयोः दलपदाधिकारिभिः सह उपवेशनं विहितम्। षोडश वित्तायोगेन सामान्य जनानां ऐच्छिक संघटनानां मानवानां च सन्दर्भरिक्तपदानां विषये परामर्शाः विचाराः च आमन्त्रिताः सन्ति, तथा च आयोगः सामान्य दृष्टिकोणं स्वीकर्तुं शक्नोति। वित्तायोगस्य कार्येण सह प्रासंगिकम् अस्मिन् विषये अपि परामर्शः आमन्त्रितः भवति। परामर्शाह्वानम् इति विभागस्य अन्तर्गतं षोडशतमे वित्त आयोगस्य जालपुटे परामर्शः प्रस्तूयते। षोडश वित्त आयोगस्य गठनं भारत संविधानस्य प्रावधानानाम् अनुसरणं कृत्वा राष्ट्रपतिना डॉ अरविन्द पनगरियायाः अध्यक्षत्वेन कृतमस्ति। मालदीवस्य विदेशमन्त्री मूसा जमीरः गतसायं भारतस्य त्रिदिवसीय यात्रायै नवदिल्ल्यां सम्प्राप्तवान्। अद्य सः विदेशमन्त्रिणा डॉ एस जयशंकरेण सह मेलनं कृत्वा पारस्परिकहितानां द्विपक्षीय क्षेत्रीय विषयेषु च चर्चां करिष्यति। आईपीएल क्रिकेट प्रतिस्पर्धा मालिकायां गतरात्रौ हैदराबादस्य राजीव गांधी अन्तर्राष्ट्रिय क्रीडांगणे सनराइजर्स हैदराबाद दलेन लखनऊ सुपर जायंट्स दलं 10 स्तोभैः पराजितम्। इति वार्ताः।